एवं रामेण उक्तः स्वधर्मं विद्वान् सीतया सह लक्ष्मणः नगरात् निर्गतः वनं तु क्रामन् दुःखम् एव तत् कार्यम् इति चिन्तयामास। ततः तेन गर्भिणीं सतीं सीतां वाल्मीकेः आश्रमे हित्वा पुनः अयोध्यायाम् आगत्य च रामः भ्रात्रा उक्तः तत् मया कर्तव्यम् आसीत् तत् अहं कृतवान् अस्मि इति। बहुषु संवत्सरेषु सम्पूर्णेषु रामेण वनम् आगत्य द्वौ कुमारौ रूपेण देदीप्यमानौ दृष्टौ। इमौ मे पुत्रौ इति ज्ञात्वा रामः तौ उक्तवान्, माता वाम वक्तव्या, अद्य तव भर्त्रा सह पुनः अयोध्यां गन्तव्यम् इति। तथा कृते राजानम् उपसृत्य सीता प्रति उक्तवती, त्वया सह पौरमध्ये स्थातुम् न शक्नोमि इति। एवम् उक्तवती सा भूमेः अन्तः अविशत्।